शान्तिः योगेन विन्द्यते बुद्ध्या भयं प्रणुदति तपसा विन्दते महत् गुरुशुश्रूषया ज्ञानं शान्तिं योगेन विन्दति विघ्नेभ्यः भयं कृतः यस्य कृत्यन्न विघ्नन्ति शीतमुष्णं भयं रतिः समृद्धिरसमृद्धिर्वा स वै पण्डित उच्यते प्राज्ञैः मैत्रीं समाचरेत् मत्या परीक्षमेधावी बुद्ध्या सम्पाद्य चासकृत् श्रुत्वा दृष्ट्वाथ विज्ञाय प्राज्ञैर्मैत्रीं समाचरेत् प्रज्ञाबलं बलं श्रेष्ठं येन त्वेनानि सर्वाणि सङ्गृहीतानि भारत यद्बलानां बलं श्रेष्ठं तत्प्रज्ञाबलमुच्यते शान्तो हि पण्डितः न हृष्यत्यात्मसम्मानेनावमानेन तप्यते गङ्गोहृदयिवाक्षोभ्यो यस्य पण्डित उच्यते